एषा रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली चीना देशस्य राष्ट्रपतेः शी चिनफिङ इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां अद्य चीना देशं प्रति प्रतिष्ठते। अद्यतन दिवसात् प्रारप्स्यमाणस्य चीना देशस्य भ्रमणस्य विषयं प्रधानमन्त्री ओली ह्यः प्रतिनिधिसभाया उपवेश्य विज्ञापितवान् आसीत्। प्रतिनिधिसभायाः ह्यस्तन उपवेशं सम्बोधयन् प्रधानमन्त्री ओली चीना देशस्य भ्रमणेन नेपालस्य प्रतिष्ठायां वृद्धिर्भविष्यति इति विश्वासं व्यक्तवान्। प्रधानमन्त्री ओली चीना देशस्य राष्ट्रपतेः शी चिनफिङ इत्यस्य मैत्रीपूर्णायां निमन्त्रणायां सांघाई सहयोग संघटन शिखर सम्मेलने भागं ग्रहीतुम् अद्यतः असैव भाद्र मासस्य अष्टादशं दिवसं यावत् नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विधाय चीनदेशस्य भ्रमणं कुर्वाणो वर्तते। प्रधानमन्त्रिणा ओलिना चीनदेशस्य राष्ट्रपतिना शी इत्यनेन सह तियान्जिन नगरे मेलवार्ता करिष्यते। चीनदेशस्य उपराष्ट्रपतिना हानझिङ इत्यनेन सह मेलवार्ता करिष्यते। राष्ट्रपतिना उपराष्ट्रपतिना प्रदास्यमाने रात्रिभोजे प्रधानमन्त्री ओली सहभागी भविष्यति इति च ज्ञापितमस्ति। प्रधानमन्त्री ओली सेप्टेम्बर मासस्य तृतीय दिवसे बेजिङ नगरे जापान देशस्य आक्रमणस्य विरूद्धे जाते युद्धे विजय प्राप्तेः अशीतितमस्य वार्षिकोत्सवस्य अवसरे आयोक्ष्यमाणे स्मृति कार्यक्रमे सहभागी च भविष्यति। तदवसरे शिखर सम्मेलने सहभागिभिः विश्वस्य नेतृभिः सह मेलवार्ता करिष्यते चेति प्रधानमन्त्रिणा ज्ञापितमस्ति। प्रधानमन्त्रिणा ओलिना सह तस्य पत्नी राधिका शाक्यः, शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्तः, संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डे, अन्य नेतारः, उच्चस्तरीय सर्वकारीय अधिकारिणश्च सहभागिनो भवन्ति इति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। प्रधानमन्त्री ओली असैव भाद्र मासस्य अष्टादशे दिवसे स्वदेशं प्रत्यागन्ता। प्रतिनिधिसभायाः ह्यस्तनोपवेशे भूमि सम्बद्धान् काश्चिन् नेपालाधिनियमान् संशोधयितुम् निर्मितम् एतद् विक्रमवर्षीयम् विधेयकम् बहुमतेन पारितीकृतमस्ति। विधेयकमाधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी भूमि सम्बद्धेष् अधिनियमेष् विवादयुक्तेष् विषयेष् च एकरूपताम् विधातुम् विधेयकस्य आवश्यकता अस्ति इति उक्तवान्। एवमेव प्रतिनिधिसभायाः ह्यस्तन उपवेशे गत विक्रम वर्षीयस्य नेपाल नागरिकता द्वितीय संशोधन विधेयकस्य विषये राष्ट्रिय सभातः सन्देशं प्राप्तं विधेयकं पञ्जीकृतमस्ति। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैः इक्षु कृषकाणां समस्यायाः समाधानाय सर्वकारस्य ध्यानाकर्षणं विहितं वर्तते। सांसदाः इक्षोः समर्थन मूल्यस्य अनुसारेण इक्षोः वित्तस्य प्राप्तेः अभावेन भूयो भूयः आन्दोलनाय इक्षु कृषकः बाध्यात्मकावस्थायां वर्तन्ते। सम्प्रति अपि आन्दोलनं सञ्चलदस्तीति च उक्त्वा कृषकेभ्यः पूर्ववद् उत्पादने आधृतम् अनुदान सहयोगं प्रदातुम् अवशिष्टं प्रदेयं वित्तमपि च दातुम् अयाचन्त। उपवेशे सांसदाः भारत चीन देशयोर्मध्ये लिपुलेख मार्ग समाविश्य विहितां सहमतिं प्रति आपत्तिं प्रकटयन्तः चीन भ्रमणस्य क्रमे कौटनीतिक रूपेण विषयमम् उत्थापयितुं प्रधानमन्त्रिणं केपी शर्मा ओलिनम् अनुरुद्धवन्तः। अत्रान्तरे ह्योपी रासोपा राप्रपा दलाभ्याम् प्रतिनिधिसभायाः उपवेशः बहिष्कृतो वर्तते। उपवेशस्य प्रारम्भणे सभामुखः देवराज घिमिरे सहमत्यर्थम् आत्मना सर्वविध प्रयासः संवादाश्च विहिता सन्तोपि पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे आन्दोलनरत पक्षस्य सर्वकारस्य च मध्ये विमर्शनस्य संवादस्य च वातावरणस्य असर्जनम् प्रति चिन्ताम् व्यक्तवान्। राष्ट्रियसभायाः ह्यस्तनोपवेशे सांसदः सामयिक विषयेष् सर्वकारस्य ध्यानाकर्षणं विदधुः। उपवेशे सांसदः नेपालस्य सहमतिं विनैव भारत चीन देशाभ्याम् लिपुलेख व्यापार संविधा विहितेति प्रकरणं प्रति विरोधं ज्ञापयन्तः प्रधानमन्त्रिणः केपी शर्मा ओलिनः चीन देशस्य भ्रमणस्य क्रमे भारतीय चीन देशीय समकक्षिभ्याम् सह कौटनीतिकं संवादं कर्तुम् अनुरुन्धन्। उपवेशे सांसदः वैदेशिक शिक्षायाः नाम्नि कतिपय वैदेशिक शिक्षण प्रेषण निकायैः विद्यार्थिनां शिक्षणेन मानवतास्कर्यस्य सम्भावना वर्धितास्ति। वैदेशिक भूम्यां विद्यार्थिनः असहायावस्थां प्राप्ताः सन्ति चेति उक्त्वा एतद्विषये उच्चस्तरीय अनुसन्धान समितिं संघटय दोषिणः दण्डयितुम् अयाचन्तः। अछाम जनपदस्य पञ्चदेवल विनायक नगरपालिकायाः अष्टमौडा क्षेत्रस्य सेलापानी ग्रामे रजोवस्थायां स्थातुं निर्मिते गोष्ठे सुप्तयोः द्वयोः महिलयोः उपरिष्ठात् पतितेन प्रस्तरेण प्ररित्य मृत्युः सम्भूतोऽस्ति। रजोवस्थायां गोष्ठे सुप्तायाम् अवस्थायाम् उपरिष्ठात् पतितस्य प्रस्तरस्य प्रहारेण सेलापानीवर्तिनः चुरखोली स्थानस्य पञ्चत्रिंशत् वर्षीया निमखनालः मंगलसेन नगरपालिकायाः षष्ठवडा क्षेत्रस्य सप्तवर्षीया बालिका कविता भण्डारी च मृतेति प्रहरिणा ज्ञापितम् वर्तते। मनाङ जनपदस्य प्रदेशसभा ख निर्वाचन क्षेत्रे आगामिनः कार्तिक मासस्य सप्तदशे दिवसे उपनिर्वाचनं भविता। ह्य उपविष्टेन निर्वाचन आयोगस्य उपवेशेन मनाङ जनपदस्य प्रतिनिधिसभायाः प्रथम निर्वाचन क्षेत्रस्य रिक्ते ख प्रदेशसभा निर्वाचन क्षेत्रे प्रदेशसभायाः सदस्य पदस्य कृते निर्वाचनस्य दिवसः निर्धारितोऽस्ति इति ज्ञापितं वर्तते। सर्वोच्च न्यायालयस्य निर्णयस्य अनुसारेण 79-2000 विक्रमवर्षस्य मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पन्ने निर्वाचने निर्वाचितस्य राजीव गुरूङ इत्यस्य सदस्यता निरस्तीकृता आसीत्। अधिकार दुरूपयोग अनुसन्धान आयोगेन अवैधानिक रूपेण सार्वजनिक भूमिं व्यक्तेः नामनि पञ्जीकृत्य अत्यधिकायाः सम्पदः अर्जनं विहितम् इत्यभियोगे रूपन्देही वर्तिनः भैरहवा भूमापन कार्यालयस्य भूमापनाधिकृतस्य सुग्रीव यादवस्य विरुद्धे ह्य विशेष न्यायालये आयोगपत्रं पञ्जीकारितमस्ति। यादवस्य विरुद्धे पञ्चकोटिनाम् 79 लक्षाणां 62 सहस्राणां च रूप्यकाणां हानिवित्तम् अभियाच्य अभियोग पत्रं पञ्जीकारितमस्ति इति आयोगेन ज्ञापितं वर्तते। नेपाल सर्वकारेण मुगु जनपदस्य मुगु कार्माडुङ ग्रामपालिकायां छायानाथ राष्ट्रिय निकुञ्जस्य स्थापनायै निर्णीतम् वर्तते। ह्य उपविष्टेन मन्त्री परिषद उपवेशेन वन वातावरण मन्त्रालयस्य प्रस्तावे निर्णयोऽसौ विहितोऽस्ति इति वनमन्त्री ऐन बहादुर शाही ठकुरी असूचयत्। डोल्पा जनपदस्य सेफोक्सुण्डो राष्ट्रिय निकुञ्जेन सह सम्पृक्तायाः मुगुम कार्माडुङ ग्रामपालिकायाः डोल्फु क्षेत्रस्य आसन्न 75 वर्ग किलोमीटरमितं भूभागं पृथक्कृत्य छायानाथ राष्ट्रिय निकुञ्जस्य स्थापना विहिता अस्ति। अनेन सहैव अतः परं नेपाली राष्ट्रिय निकुञ्जानां संख्या 13 प्राप्ता वर्तन्ते। इति समाचारः।